पुनः आरम्भं करोतु भगिनि.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते जयन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्.
हिन्दुधर्मम् हिन्दुधर्मं समाजं च भगिनी वदतु.
हिन्दुधर्मं समाजं च
पवित्रां
पवित्रां संस्कृतिं तथा संस्कृत्य ननु
कुर्याम संरक्ष्य ननु कुर्याम
विश्वं शान्ति समन्वितम्.
उत्तमं भगिनि.
विश्वं शान्ति समन्वितम्
ॐ शान्ति
शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्.
उत्तमं भगिनि, बहु धन्यवादः. इदानीं वयं गतवर्गे किं पठितवन्तः, अहं गृहपाठरूपेण वाक्यानि रचयतु इति लिखितवती. अस्तु, एकमेकं नूतनपदानि एव, इत्युक्ते अतः, यतः, यः, सः, यत्र, तत्र, यद्यपि, तथापि, किन्तु, परन्तु अथवा परन्तु, निश्चयेन इति कृतवन्तः. परन्तु प्रायशः न पठितवन्तः. परन्तु अर्थविषये विपरीत अर्थः. अपि च किल, एते अंशान् पठितवन्तः गतवर्गे. वयं पुनस्मारणं कुर्मः. क आरम्भं करोति? सागरी भगिनी, अतः यतः विषये वाक्यमस्ति वा? मम बुभुक्षा अस्ति, अतः अहं खादामि. अहं खादामि यतः बुभुक्षा अस्ति.
अस्तु भगिनि, अहं गृहपाठं करोमि भगिनि.
चिन्ता मास्तु. न इदानीं स्वस्य वाक्यं वदतु. योर् ओन् वर्ड्स्. पुस्तकमस्ति, अतः अहं पठामि. अहं पठामि यतः पुस्तकमस्ति.
अत्र यतः पात्रम् अस्ति, ततः अहं पाकं करोमि.
सो अत्र ततः इति पदस्य अर्थः अस्ति तत्रतः इति. अहम् आपणं गच्छामि, ततः अहं गृहं न आगच्छामि, ततः अहं मन्दिरं गच्छामि. अहम् आपणं गच्छामि, आपणतः मन्दिरं गच्छामि. आपणः तत्र अस्ति. अहम् इतः, अहं गृहे अस्मि. गृहतः अहम् आपणं गच्छामि. अहम् इतः तत्र गच्छामि. अहम् आपणतः मन्दिरं गच्छामि. अहं ततः मन्दिरं गच्छामि. सो तत्र इति अर्थः कः भगिनि?
Bhagini, you, my sound is not all right. You were breaking up. I couldn't hear most of what you said.
Yeah, I think your sound is
sound is not all right. I'm not able to hear you at all. You know, the whole thing was just breaking up, some internet problem. Please go on to someone else.
Astu bhagini.
I'll try to manage. Yes.
Gopika bhagini. Yatah atah.
Bhagini, the best way to solve the problem in computer is get out and re-enter. Things normally fall to the place.
Namaskaram bhagini. Parameshwaran here.
Namaskaram mahodaya. Parameshwaran.
Actually, there is no problem in the sound, only in the, his particular, her particular computer there is some problem, I think.
Astu. So, Sagari Bhagini, so you can log out and log back in. Maybe that will help. Astu.
Namaskara Bhagini, Mahesh Kashyap.
Mahesh Varam Mahodaya. Mahesh. Astu, Gopika Bhagini, Yataha Ataha.
अहं प्रश्नं पृच्छामि किञ्चित् ध्वनिः आगच्छति
अस्तु अहं सर्वान् म्यूट् करोमि भगिनि एकनिमिषम् अस्तु इदानीम् अन्म्यूट् करोतु भगिनि अनन्तरं वदतु
आं भगिनि अद्य अहं सम्यक् पठति अतः अहं पठामि अतः अहं सम्यक् परीक्षा लिखामि
परीक्षायां लिखामि
परीक्षायां लिखामि
ऐम् सारी परीक्षां लिखामि परीक्षां
लिखामि ईश्वरः पृथ्व्याम् आगच्छति
भगिनी समानवाक्यं परिवर्तयतु अहं परीक्षां सम्यक् लिखामि
अहं परीक्षां सम्यक् लिखामि अतः यतः अहं सम्यक् पठितवती
उत्तमं सो अत्र कारणम् अस्ति अनन्तरं कार्यम् अस्ति कार्यं किम् अत्र भगिनि अत्र कार्यं किं भवत्याः वाक्ये
लिखामि
परीक्षां लिखामि
लिखामि
सम्यक् परीक्षां लिखामि तदेव कार्यं सम्यक् परीक्षां लिखामि
कारणं पठामि
सम्यक् पठितवती सम्यक् पठितवती
सम्यक् पठितवती
सम्यक् पठितवती इति कारणम् सम्यक् लिखित परीक्षां लिखितवती कार्यम् अस्तु बहु धन्यवादः भगिनि सविता भगिनि
यस् भगिनि
प्रथमं सर्वे आगच्छन्ति वा यतः अतः
Yes, Bhagini. Only thing is they should remember. That's what.
So it is very normal to say itaha, tataha, all that. Itaha is from here. Aham grihe asmi, aham apanam gachami, aham itaha tatra gachami. Itaha. Tata, itaha tatra gachami. Aham apanataha mandiram gachami. अहं ततः मन्दिरं गच्छामि इतः इस् फ्रम् हियर् ततः फ्रम् देर् यतः बिकास् अतः देर् फोर् सो तत्र किमपि भ्रमः आगच्छ देर् इस् सम् देर् विल् बि कन्फ्यूशन् बट् यु हाव् टु रिमेम्बर् इतः ततः इस् फ्रम् हियर् फ्रम् देर् यतः बिकास् ततः देर् फोर् अस्तु सो एनी क्वेश्चन्स् अतः इस् देर् अतः इस् देर् फोर् यतः बिकास् य
धन्यवादः
अस्तु
ततः कम्स् इतः ततः आल्सो ततः कम्स् अतः ततः आल्सो कम्स्
नो 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 इतः ततः दे गो टुगेदर् इतः तत्र गच्छामि ततः पुनः अत्र आगच्छामि ओके इतः ओके नौ यतः गोस् वित् अतः नाट् ततः नो इट् विल् नाट् गो वित् बोत् ओके अस्तु अस्तु का सविता भगिनी अग्रे गच्छामः यः सः अथवा या सा अथवा यत् तत् यः वदति यः इदानीम् उक्तवान् सः श्रीनिवासमहोदयः या पूर्वम् उक्तवती सा गोपिका यत् पुस्तकं वयं पठामः तत् अभ्यासपुस्तकम् अवगच्छन्ति वा उदाहरण यः उक्तवान् सः श्रीनिवासमहोदयः या उक्तवती सा गोपिका यत् पठामः तत् पुस्तकम् अभ्यासपुस्तकम् अस्तु एकं वाक्यं वदतु भगिनि यः सः अथवा या सा
यः रामः सः लक्ष्मणः
न तथा कथं कथं भवति यथा न यः यः रामः सः
लक्ष्मणः
हौ केन् इट् बि बोत् भगिनि
अच्छा सो सेम् यः रामः सः
सः लक्ष्मणस्य
सहोदरः
अग्रजः उत्तम
यः रामः सः लक्ष्मणस्य अग्रजः
उत्तम
सा या सीता सा रामस्य धर्मपत्नी
उत्तमम्
यत् यत् रथः यत् रथं
रथः तत्
रथः यत् रथः
न न न यः रथः भगिनि यः रथ यत् यत् कार्यानम् इति वदति यत् कार्यानम् अथवा यत् यत् नगरं
यत् नगरं तत् अयोध्यानगरम्
अस्तु यत् 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 नगरे यत् यस्मिन् नगरे सः वसति तत् अयोध्यानगरम् अस्तु सो अत्र वि केन् आल्सो यूस् डिफ्रेण्ट् विभक्ति यस्मिन् यस्मिन् नगरे रामः आसीत्
तस्मिन् नगरे
यस्मिन् नगरे या यु केन् डू दट् टु यस्मिन् नगरे बट् यु डोण्ट् हाव् टु यस्मिन् नगरे रामः आसीत् तत् नगरम् अयोध्या नगरम् और् यु केन् आल्सो से तस्य नाम अयोध्या सो वि केन् यूस् डिफ्रेण्ट् विभक्ति आल्सो
यस्मिन् सप्तमी
यस्मिन् सप्तमी यस्मिन् तस्मिन् सप्तमी अस्तु अग्रे बीना भगिनी यत्र यत्र तत्र
यत्र तत्र यत्र यत्र अहं वसति तत्र अद्य वातावरणं सम्यक् अस्ति
उत्तम पुनः वदतु भगिनि यत्र अहं वसा
यत्र अहं वसति
वसामि
यत्र अहं वसामि तत्र अद्य वातावरणं सम्यक् अस्ति
उत्तमम् उत्तमवाक्यं सर्वे अवगच्छन्ति वा यत्र नदी अस्ति तत्र जनाः तरन्ति स्विमिङ्ग्, यत्र वृक्षाः सन्ति तत्र छाया अस्ति शेड्. अस्तु, यद्यपि तथापि केतकी भगिनी, यद्यपि मम पुरतः भोजनमस्ति तथापि अहं न खादामि. सो अत्र विपरीत योजना, भोजनम् मम बुभुक्षा अस्ति चेत् अहं खादामि, भोजनं मम पुरतः अस्ति चेत् अहं खादामि, परन्तु अत्र यद्यपि अस्ति तथापि अहं न करोमि. सो तत्र विषयः भिन्नविषयः. अस्तु भगिनि, वदतु एकं वाक्यं. नो भगिनि, यु हाव् टु यूस् यद्यपि तथापि. इत्युक्ते इन् इङ्ग्लिश् विषये ईवन् दो ऐ लैक् सारि, ऐ विल् नाट् वेर् सारि.
यद्यपि अहम् अवगतं संस्कृतं तद्यपि न वदतु न शक्नोति वदतु.
अस्तु, यद्यपि अहं संस्कृतं जानामि,
यद्यपि अहं संस्कृतं जानामि
तथापि अहं वक्तुं न शक्नोमि.
अहं वक्तुं न शक्नोमि.
टु स्पीक् इस् वक्तुं, न शक्नोमि इस् एबल् टु.
अहं वक्तुं न शक्नोमि.
उत्तमं भगिनि, यु हाव् टु वाच् औट्. अहम् इति अस्ति चेत् मी एव, तु न, ती न, मी पुनः वदतु यद्यपि केतकि भगिनि, यद्यपि
अहं संस्कृतं जानामि
तथापि
अहं वक्तुं न शक्नोमि.
उत्तमम्, उत्तमवाक्यं भवती, उत्तमं न उत्तमवाक्यं भवती वक्तुं शक्नोति एव. अस्तु, अस्तु. सागरी भगिनि, यु हेड् अ क्वश्चन् वा? Who had a question? Somebody had a question.
No. I want to tell one sentence, madam. Yadyapi samayaha adhikam asti, tadapi naham doordarshanam drashtum na ichami.
Uttama, doordarshanam. Ekadeva vishyam, tathapi. Astu. सर्वे म्यूट् मध्ये गच्छन्तु कृपया. अस्तु, श्रीनिवासमहोदय, किन्तु परन्तु अथवा प्रायशः निश्चयेन, किन्तु वदतु, किन्तु परन्तु प्रायशः निश्चयेन किमपि.
सम्यक् न जानामि परन्तु संस्कृतम् एव वक्तुम् इच्छामि.
संस्कृतेन एव वक्तुम् इच्छामि. उत्तम उत्तमवाक्यम्, उत्तम चिन्तनम् अपि. उत्तमं महोदय, यद्यपि तथापि
उत्तमम्.
एक्साक्ट्लि, बट् यु डोण्ट् स्टार्ट् वित् यद्यपि. यस्, उत्तमम्. द सेम् सेण्टेन्स् ऐ केन् से यद्यपि तथापि, the same sentence, you don't have to say yadyapi, but you say parantu kintu. Uttama.
Actually, I thought of the sentence yadyapi tathapi, parantu kim, I just rephrased it.
Uttama. Okay, did everybody understand that yadyapi tathapi can be rephrased as kintu, but without the yadyapi tathapi. Punaha vadatu mahodaya.
Aham samskritam samyak na janami. परन्तु संस्कृतम् एव वक्तुम् इच्छामि संस्कृतेन एव वक्तुम् इच्छामि
उत्तमवाक्यं वदतु वदतु भगिनि
किन्तु अहं न अवगतं निश्चयेन प्रायशः परिश्रमं कर्तुं पाठम् अवगतः किल.
Oh, you added everything. So atra bhagini, you can use either prayashah or nischayena.
Oh, but I cannot use
that. No, you can use either prayashah or nischayena. Prayashah means probably.
Okay. Nischayena
means definitely.
Definitely. Okay.
Astu. उमाकृष्णन् धन्यवादः भगिनि. उमाकृष्णन् भगिनि प्रायशः मीन्स् प्राबब्लि. ऐ जस्ट् पुट् इट् इन् टु सेपरेट् सेण्टेन्सेस् बट् इट् केन् वदतु
भगिनि.
यु केन् यूस् इट् लैक् हौ ऐ डिड् इट्. अहं प्रायशः गच्छामि निश्चयेन न जानामि लैक् दट्.
अहम् आपणं प्रायशः गच्छामि निश्चयेन न जानामि.
उत्तमं. बट् यु ट्रै फार् अ डिफ्रेण्ट् सेण्टेन्स् भगिनि. अय्य
अहं
अस्तु भगिनि, अहं प्रश्नं पृच्छामि. भवती चलनचित्रमन्दिरं गच्छति वा?
अहं गच्छामि.
सो यु यूस् एदर् निश्चयेन आर् प्रायशः.
अहं श्वः कार्यक्रमं गच्छामि. निश्चयेन अगेन् ऐ एम् गेटिङ्ग् द सेम् वर्ड्.
सो भगिनि, यु केन् से अहं श्वः निश्चयेन कार्यक्रमं गच्छामि. श्वः निश्चयेन कार्यक्रमं गच्छामि.
धन्यवादः भगिनि. अहं श्वः
निश्चयेन कार्यक्रमं गच्छामि. तत्र सन्देहः नास्ति. देर् इस् नो डौट्. सो दट् इस् मोर् क्लियर. अहं श्वः निश्चयेन गच्छामि. तत्र सन्देहः नास्ति. सन्देहः नास्ति. देर् इस् नो डौट्. निश्चयेन गच्छामि. अहं श्वः भवत्याः गृहं प्रायशः आगच्छामि. निश्चयेन आगच्छामि वा इति न जानामि. प्रायशः आगच्छामि. समयः अस्ति चेत् आगच्छामि इति अर्थः. समयः अस्ति चेत् अहम् आगच्छामि इति अर्थे अहं प्रायशः आगच्छामि. निश्चयेन आगच्छामि वा इति न जानामि.
धन्यवादः.
भगिनि
वदतु.
अहं वक्तुम् इच्छामि.
वदतु भगिनि.
मम परीक्षाः प्रायशः परीक्षा प्रायशः आगामि सप्ताहे आगमिष्यति. निश्चयेन अहं पठामि.
उत्तमं. सो यु केन् इवन् एड् अतः निश्चयेन अहं पठामि.
मम परीक्षाः आगमिष्यति, अतः अहं पठामि.
अस्तु
अहं पठामि यतः मम परीक्षाः आगच्छति.
परीक्षाः इत्युक्ते बहुवचनं वा?
आं भगिनि.
आम् अस्तु
भगिनि. ओन् आब्सर्वेशन्. Prayashaha, the word Prayashaha, are they linked somewhere? One must be the origin of other.
Prayasam means to make an effort.
Correct. That then probably also comes along with that, no?
I don't know. Not sure.
Are they linked words?
Yeah. So actually we can say Prayashaha or we can say Prayaha. Prayaha also we can say. प्रायशः निश्चयेन. अस्तु अम्ब अस्ति वा? यु वाण्ट् टु से संथिङ्ग् अम्ब? यु केन् से किल अथवा खलु अथवा ननु. अस्तु सविता भगिनि.
यस् भगिनि.
किल, सो द किल, खलु, ननु, दे आल् मीन् द सेम्. मम नाम राधिका. किल संस्कृतवर्गः. किल अद्य शुक्रवासरः. किल
त्वां तस्य नाम रमेशः. किल
तस्य नाम रमेशः. किल उत्तमम्. अन्यवाक्यम् एतत् भारतदेश एषः भारतदेशः. किल अन्यवाक्यं वदतु.
एष भारतदेश प्रधान महोदय महोदय. किल
कः किं भगिनि?
एषः भारतदेश प्रधान महोदय. किल
प्रधान महोदय. किल सो अत्र इफ् ऐ वाण्ट् टु आस्क् अ क्वश्चन् एषः कः, दट् इस् वन् क्वश्चन्. एषः कः, यु हेव् नो ऐडिया. एषः कः कः इति अहं न जानामि. एषः कः? एषः नरेन्द्रमोदीजी इति. नरेन्द्रमोदी महोदयः. एषः कः? एषः
नरेन्द्रमोदी
महोदयः. परन्तु अन्य दिशि, अनदर् डैरेक्षन् इत्युक्ते एषः नरेन्द्रमोदीमहोदयः वा इत्युक्ते अहं निश्चयेन न जानामि. अहं चिन्तयामि सः प्रायशः नरेन्द्रमोदीमहोदयः इति अहं चिन्तयामि. अतः अहं पृच्छामि एषः नरेन्द्रमोदीमहोदयः वा इति. अहं निश्चयेन जानामि परन्तु अहं पृच्छामि एषः नरेन्द्रमोदीमहोदयः किल इति. सो हियर् ऐ एम् एक्स्पेक्टिङ्ग् यस् अस् दि आन्सर्. अवगतम्? ओके. सो देर् आर् त्री डिफ्रेण्ट् वेस्. अस्तु इदानीं there are other people, so I'll just ask, they can say any of this. Astu atah yatah all that. Astu Saundaram bagini. Atah yatah yatah yatra tatra yatya kim api vadati.
Aham pibasa asmi asmi. Atah नारिकेलपानीयं पिबामि.
उत्तमं. सो भगिनि मम पिपासा अस्ति, मम पिपासा अस्ति, अतः अहं पिबामि.
मम पिपासा अस्ति अतः नारिकेलपानीयं पिबामि.
अहं पिबामि.
अहं पिबामि यतः मम पिबासा अस्ति.
उत्तमं. धन्यवादः भगिनि. धन्यवादः. अग्रिमम् अस्ति परमेश्वर महोदय. एकनिमिषं भगिनि, अनन्तरं वदतु.
यतः विद्युत् नास्ति ततः दीपं न ज्वलति.
अतः दीपः न
ज्वलति.
दीपः न ज्वलति.
दीपः न ज्वलति. यदि विद्युत्
यतः
यतः विद्युत् नास्ति.
विद्युत् नास्ति अतः दीपः न ज्वलति. दीपः न ज्वलति यतः विद्युत् नास्ति. यतः विद्युत् नास्ति अतः तत् तत् आवश्यकं मास्ति महोदय. आवश्यकं नास्ति तथा मा वदतु. यतः मास्तु. विद्युत् नास्ति अतः दीपः न ज्वलति. दीपः न ज्वलति यतः विद्युत् नास्ति. अस्तु महेश महोदय.
आं भगिनि. या सम्यक् चित्रं लिखति सा मम पुत्री.
भगिनि अहं सर्वाणि म्यूट् करोमि.
यद्यपि तद्यपि अहं
वदतु वदतु.
यद्यपि किञ्चित् कष्टं भवति तद्यापि अहं योगासनं करोमि.
यद्यपि किञ्चित् कष्टम् अस्ति तथापि अहं योगासनं करोमि. उत्तम उत्तम. अम्बा वक्तुम् इच्छति वा?
अम्बा
वदतु.
यत्र आरक्षकाः सन्ति तत्र कोलाहलः भवति.
उत्तम. यत्र आरक्षकाः सन्ति तत्र कोलाहलः भवति अथवा यत्र कोलाहलः
भवति बालकः आरक्षकः सन्ति.
उत्तमम् उत्तमम् अम्ब धन्यवादः. अस्तु इदानीम् अग्रे गच्छामः. प्रश्नः सन्ति वा? यत्र तत्र अतः यतः यः सः यद्यपि तथापि किन्तु प्रायशः.
Begin is one page summary that you have made, please mail it across to us.
I will do it. I want to add some more. And then I'll do it Mahodaya nischayena. Astu. Sorry, I didn't give homework last day. I was so busy, you know, I had to go for a camp and you know it just got away from my head. Sorry about that. Astu. Agre vayam visheshana visheshyam iti बहु मुख्य अंशः. अस्तु एकनिमिषम् अस्तु.
एड्जेक्टिव्
भगिनि वदतु.
एड्जेक्टिव् विशेषणम् इस् एड्जेक्टिव् भगिनि.
आम् विशेषणम् इस् एड्जेक्टिव् अस्तु. अहं सर्वाणि म्यूट् करोमि. वक्तुम् इच्छति चेत् अन्म्यूट् करोतु वदतु. अत्र विशेषणं विशेष्यं बहु मुख्य अंशः एतत्. सो अत्र बालिका पठति. बालिका पठति. सा बालिका पठति. सा इट् डिस्क्रैब्स् द बालिका. सो अत्र विशेषणं विशेष्यम् इस् नौ. विशेष्यं सा बालिका. So it explains the balika kalo. Balika tatra asti. So it is sa. Parshve asti chet. Katam vadamaha.
Esha.
Esha uttama. Esha. So atra sa balika. So the prashnaha comes. Kidrisha balika. What type of balika? How do you describe the balika? Kidrisha balika? Like in Tamil we say enda madri? எந்த மாதிரி பாலி, எந்த மாதிரி பாலிகா, கீதிருஷி பாலிகா, கீதிருஷி பாலிகா, சுந்தரி பாலிகா, சுந்தரி பாலிகா, சா சுந்தரி பாலிகா படதி. உதாரணார்த்தம் இஃப் இட் இஸ் பாலகஹ படதி, ஹவ் வில் த சா சேஞ்ச்? சஹ சஹ பாலகஹ படதி. சோ இன்ஸ்டெட் ஆஃப் சுந்தரி இட் வில் பிகம் சுந்தரஹ, சுந்தரஹ, சஹ சுந்தரஹ பாலகஹ படதி. உத்தமம், யூ காட் இட். Supposing it is a fruit, phalam patati, how will the sa change?
Tat phalam,
tat phalam patati, tat phalam patati. So let's keep this sundara, how will that change? Tat
sundaram phalam,
tat sundaram phalam patati. Okay, sundari. So For Pullinga and Napumsakalinga, it is 90, it is almost 100% of the time is aha and am. Okay, here we go. Chatura, chat. Okay, so Sundari, so we have either E ending or A ending for Strilinga. For Pullinga, it is almost all the time aha. For Napumsakalinga, it is am. Sundaram chitram, sundaram pustakam, sundari balika, sundarah balakah, like that. So if you add one more, chatura, chatura sundari. So for strilinga, we have a as well as e ending to show strilinga. Sundari chatura, sa chatura sundari balika patati. So let's say she is very tall. We say sa unnata chatura sundari balika patati. How will this sentence change for a pullinga person?
Saha unnata,
chatura sundaraha balaka patati.
விசேஷம் நோ மேட்டர் ஹவு மெனி தே ஆல் ஹாவ் டு அட்ஜஸ்ட் டு த விசேஷம். If it is
excuse me, madam. Excuse me, madam. Chatura means intelligent or what?
Yeah, intelligent, clever, intelligent.
Clever, okay.
Okay. So, whichever lingam it is, it has to follow. If it is Napumsaka lingam, tat
madhura phalam.
It doesn't make sense, but anyway. Tat unnatam chaturam sundaram phalam patati. Okay, so saha unnataha chaturaha sundaraha balakaha patati. Astu. So atra, this follows the lingam. So this is prathama vibhakti eka vachana. So everything is prathama vibhakti ekavachanam. Balakah. If it is balikah, how will it change? Balikah. Taah.
Taah.
Taah. Unnataah. Chaturaah.
Sundaryaah.
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 பாலகாஹ ते
उन्नताः चतुराः सुन्दराः
बालकाः पठन्ति.
उत्तमम्. ते उन्नताः चतुराः सुन्दराः बालकाः पठन्ति. पठन्ति. उत्तमम्. सपोजिङ्ग् इट् इस् फलम्. इट् डजन्ट् मेक् सेन्स् बट् एनिवे फलम्. पठन्ति. उत्तमं. प्रश्नाः सन्ति वा? सर्वे अवगच्छन्ति वा?
अवगच्छन्ति
वा? उत्तमम्. अस्तु. सो सर्वे द लास्ट् उदाहरणे अन्तिम उदाहरणे नपुंसकलिङ्ग बहुवचन परन्तु प्रथमाविभक्ति एव. सो अत्र लिङ्गं किम् इति वयं द्रष्टव्यं. वि हाव् टु सी लिङ्गं किं. वचनं मीन्स् एकवचनं वा बहुवचनं वा. ओके. अग्रे वयं विभक्ति रूपं पश्यामः. बालिकायाः पुस्तकम् अत्र अस्ति. बालिकायाः इत्युक्ते विभक्ति का? बालिकायाः षष्टि. उत्तमम्. बालिकायाः पुस्तकम् अत्र अस्ति. सो वि विल् टेक् सा इति अस्ति चेत् षष्टि विभक्ति कति भवति? तस्याः बालिकाः पुस्तकम् अत्र अस्ति. ओके. म्यूट् मध्ये गच्छन्तु. धन्यवादः. के वक्तुम् इच्छन्ति वदतु, पुनः म्यूट् मध्ये गच्छन्तु. धन्यवादः. सो अत्र सा इति पदस्य षष्टि विभक्ति अस्ति. तस्याः बालिका बालिकायाः पुस्तकम् अत्र अस्ति. इदानीं सुन्दरी इति पदस्य षष्टिविभक्ति कथं भवति? लेखनी लेखन्याः, कूपी कूप्याः, नदी नद्याः, सुन्दरी सुन्दर्याः, तस्याः सुन्दर्याः बालिकायाः पुस्तकम् अत्र अस्ति. अस्तु. अनन्तरं चतुरा कथं भवति? चतुरा इति पदस्य षष्टिविभक्ति. माला मालायाः, पेटिका पेटिकायाः, चतुरा चतुरायाः, तस्याः चतुरायाः सुन्दरी सुन्दर्याः बालिका बालिकायाः पुस्तकम् अत्र अस्ति. उन्नता चतुरा इव भवति खलु. तस्याः उन्नतायाः चतुरायाः सुन्दर्याः बालिकायाः पुस्तकम् अत्र अस्ति. सो विशेष्यं विशेष्यस्य लिङ्गं किं, वचनं किं, विभक्तिः का इति दृष्ट्वा वयं विशेषणस्य रूपं तथा एव कुर्मः. बालिका स्त्रीलिङ्ग एकवचनं, सुन्दरी स्त्रीलिङ्ग एकवचनं, बालिकाः बहुवचनं, सुन्दर्यः बहुवचनं, बालिकायाः षष्टी एकवचनं, सुन्दरी अपि षष्टी एकवचनम्. अस्तु. सो एक श्लोक इव अस्ति. यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. सो अत्र किं किं श्लोकः किं वदति इत्युक्ते, यत् लिङ्गं यत् यल्लिङ्गम् इस् अक्लि यत् लिङ्गं, यत् लिङ्गं यत् 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 वचनं या विभक्तिः विशेष्यस्य 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 तत् लिङ्गं तत् वचनं सा विभक्तिः विशेषणस्य अपि. ओके, प्रश्नाः सन्ति वा? अस्तु, अग्रे गच्छामि. सो अत्र ईदृश तादृश कीदृश, ईदृश इत्युक्ते वाट् टैप्, दिस् टैप्. ईदृश मीन्स् हियर्, इफ् इट् इस् नियर् बै, अत्र अस्ति अतः ईदृश, तत्र अस्ति तादृश. इन् तमिळ् विषये इन्द माद्रि अन्द माद्रि, दिस् टैप् दट् टैप्. How will you say in other languages?
Hindi simply
ila alava.
Idhar udhar in Hindi.
Idhar udhar means here there, right? But this time. This time.
Ye wo.
Ye jaisa wo jaisa. ஏ ஜைசா ஓ ஜைசா கீதிருஷ மீன்ஸ் விச் டைப், எந்த மாதிரி. இஸ் அ க்வெஸ்சன், எந்த மாதிரி.
கைசே
கைசே
எலா எலா
எலா. ஓகே, இலா அலா எலா. அஸ்து. ஸோ இஃப் இட் இஸ் கட்டி ஸ்திரீலிங்க, வி சே ஈதிருஷி, இட்ஸ் நாட் ஈதிருஷா பட் ஈதிருஷி. ஈதிருஷி கட்டி இச்சதி வா, तादृशी घटी इच्छति वा. ईदृशी घटी, तादृशी घटी. बट् वेन् ऐ से इच्छति वा, ऐ हाव् टु एड् इम् टु इट्, रैट्? ईदृशीं घटीम् इच्छति वा, तादृशीं घटीम् इच्छति वा. फार् स्त्रीलिङ्ग ईदृशी तादृशी, फार् पुल्लिङ्ग ईदृशः स्यूतः तादृशः स्यूतः. ईदृशः स्यूतः, तादृशः स्यूतः. पुस्तकम् ईदृशं पुस्तकम्. वै इस् इट् आल्वेस् चेञ्जिङ्ग् ईदृशी ईदृशः ईदृशम्?
लिङ्गम्
लिङ्गम् विशेषण विशेषभावः, वि काल् इट् विशेषण विशेषभावः. And this one is extremely important. In all slokas, everywhere you see visheshana vishesha bhavaha. So it's very important you understand this well. Idrisham pustakam tadrisham pustakam. Astu. Alpaharaha avashyakaha va. So it is alpaharaha. Therefore, it is avashyakaha. If it is pustakam, it will be avashyakam. If it is a strilinga, it will be avashyaki. Shatika avashyaki va. Alpaharaha avashyakaha va. Kidrisha alpaharaha avashyakaha. Tadrisha alpaharaha avashyakaha va. ईदृश अल्पाहारः आवश्यकः वा इति प्रश्नः. सम्बडी प्लीस् रीड् दिस्. सागरि भगिनी, भवत्याः ध्वनिः सम्यक् नास्ति इति चिन्तयामि. गोपिका भगिनी वदति वा?
अल्पाहार आवश्यकः, कीदृश अल्पाहारः आवश्यक, तादृश.
भगिनी, यु हाव् टु रीड् द विसर्ग आल्सो. पुनः वदतु.
कीदृशः अल्पाहारः आवश्यक, तादृशः अल्पाहारः आवश्यक, ईदृश अल्पाहारः न आवश्यकः.
उत्तमम्. तादृश अल्पाहारः आवश्यकः, ईदृश अल्पाहारः न आवश्यकः. उत्तमम्. सर्वे अवगच्छन्ति वा? तादृश ईदृश कीदृश
अवगतं भगिनि.
अस्तु, गोपिका भगिनि एतत् पठति वा पुस्तकम्?
आम्, पुस्तकम् आवश्यकं. कीदृशं पुस्तकम् आवश्यकं? तादृशं पुस्तकं न आवश्यकम्, ईदृशं पुस्तकम् आवश्यकम्.
हा, उत्तम उत्तम. कीदृशं, यतः पुस्तकम् इति नपुंसकलिङ्गपदम्, पुस्तकं नपुंसकलिङ्गपदम्, अतः आवश्यकम् अपि नपुंसकलिङ्गपदमेव. अत्र अल्पाहारः पुल्लिङ्गपदम्, अतः कीदृशः पुल्लिङ्गपदम्, आवश्यकः पुल्लिङ्गपदम्, तादृशः पुल्लिङ्गपदम्, ईदृशः पुल्लिङ्गपदम्, सर्वे पुल्लिङ्गपदानि. किमर्थम्? अल्पाहारः इति पुल्लिङ्गपदम्. एवमेव पुस्तकं नपुंसकलिङ्गपदम्, कीदृशं नपुंसकलिङ्गम्, आवश्यकं नपुंसकलिङ्गं, तादृशम् ईदृशं, सर्वाणि पदानि नपुंसकलिङ्गपदानि. किमर्थं? पुस्तकं सो अत्र विशेष्यं किं, विशेषणं किं भगिनि? गोपिका भगिनि, विशेष्यं विशेषणं, विशेष्यम् इति पुस्तकम्, विशेषणं अन्य सर्वाणि पदानि विशेषणम्, आवश्यकम्, कीदृशं, तादृशम्, ईदृशम्, एतानि पदानि विशेषणम्.
विशेषणम् इस् अड्जेक्टिव्, विशेष्यम् इस् नौन भगिनि.
आम् आम् आम्
अवगतम्.
हा, उत्तम. सो अत्र अन्य का पठति? सविता भगिनी पठति वा? पाञ्चालिका.
पाञ्चालिका आवश्यकी. कीदृशी पाञ्चालिका आवश्यकी? तादृशी पाञ्चालिका आवश्यकी? ईदृशी पाञ्चालिका न आवश्यकी?
उत्तम. ईदृशी,
ईदृशी पाञ्चालिका न आवश्यकी.
उत्तमम्. सो अत्र विशेष्यं किं भगिनि? विशेष्यं, विशेष्यं पाञ्चालिका. पाञ्चालिका स्त्रीलिङ्गपदम्, अतः सर्वाणि पदानि स्त्रीलिङ्गमेव. आवश्यकी, कीदृशी, तादृशी, ईदृशी इति. अस्तु, वीणा भगिनि लेखनी.
आं भगिनि, लेखनी आवश्यकी. कीदृशी लेखनी आवश्यकी? तादृशी लेखनी आवश्यकी? ईदृशी लेखनी न आवश्यकी?
उत्तमम्. अत्र विशेष्यं किं भगिनि? विशेष्यं,
विशेष्यं लेखनी.
लेखनी, उत्तमम्. विशेषणं
कीदृशी, तादृशी, ईदृशी?
उत्तम. कीदृशी, तादृशी, ईदृशी, आवश्यकी अपि, आवश्यकी अपि विशेषणानि. सर्वे अवगच्छन्ति वा?
आं भगिनि.
आं भगिनि.
आम्,
अस्तु. एकमेकं वाक्यं वदतु. केतकि भगिनि, पदद्वयं स्वीकरोतु. एकं विशेषणम्, एकं विशेष्यम्. आवश्यकम्, आवश्यकी, आवश्यकः इति मिलित्वा वदतु. उदाहरणार्थम्, ईदृशः चषकः आवश्यकः वा? लैक् दिस् यु मेक् सेण्टेन्सेस्. अस्तु, आरम्भं करोतु केतक् भगिनि. मधुरं फलम् ईदृशं, सो यूस् द वर्ड् ईदृशम् आल्सो. ईदृशं मधुरं फलम् आवश्यकं वा? उत्तमम्. पुनः वदतु. ईदृशी
मधुरं फलम् आवश्यकी वा?
न भगिनी, इफ् यु यूस् फलं, it should be idrisham.
Idrisham maduram phalam avashyaka avashyaki va.
No, atra avashyakam also has to come. Everything has to be am.
Avashyakam va.
Idrisham maduram phalam avashyakam va.
तादृशीं मधुरं फलम् आवश्यकं वा
उत्तमं तादृशं मधुरं फलं फलं मधुरं फलम्
आवश्यकम्
आवश्यकम् अथवा न आवश्यकम्
उत्तमं
अस्तु श्रीनिवास महोदय
धन्यवादः
धन्यवादः भगिनि स्वागतं श्रीनिवास महोदय
ईदृशा दूरवाणी
ईदृशी
दूरवाणी भवतः समीपे अस्ति वा
उत्तमम् उत्तमम् ईदृशी दूरवाणी भवतः समीपे अस्ति वा And what will be the answer using tadrisha?
Tadrishi duravani mama samipe api asti.
Uttama. Dhanyavada Mahodaya. Uma Krishnan Bhagini.
Bhagini? Bhagini eka prashna ha?
Prichatu.
Bhagini, whatever aham vadami, maduram phalam is a visheshanam, right?
Phalam is visheshyam. Madhuram describes the phalam, kalo. So whatever describes is visheshanam.
And phalam is visheshya.
Visheshyam. Visheshyam. Yam bhagini. Visheshyam.
Astu
bhagini. Phalam. Okay. Astu. Uma Krishnan bhagini.
आं भगिनि भोजनं खादितुं वा इस् देट् करेक्ट्
भोजनं खादति वा खादति वा
ओके भोजनं खादति वा कीदृशं
कीदृशं
भोजनं खादति वा खादति तादृशीं भोजनं खादति
तादृशं तादृशं
तादृशं तादृशं ईदृशं भोजनं न खादति
न खादति
न खादति
उत्तमं अस्तु आर् यु केन् गिव् दि आन्सर् ताद् ईदृशं भोजनं खादामि
ओके
You ask and then give the answer. Uttamam bhagini. Amba, vadati va? Astu. Anantaram vadatu. Savita bhagini.
Yes, bhagini.
Ekramsh Savita bhagini, Amba agachit. Amba, vadati va? Vadatu.
Idrisham bhavanam avashyakam.
Idrisham...
तादृशं भवनम् आवश्यकम् ईदृशं भवनं न आवश्यकम्
उत्तमम् कीदृशं भवनम् आवश्यकं तादृशं भवनम् आवश्यकम् ईदृशं भवनं न आवश्यकम् उत्तमं स्पष्टं स्पष्टम् अम्ब धन्यवादः सविता भगिनि
आहारः आवश्यकः कीदृशः आहारः आवश्यकः
स्वस्य वाक्यं वदतु
ऐ रिमूव्ड् अल्पस् ऐ मेड् इट् आहारः ओके
अस्तु अस्तु वदतु वदतु कीदृशः इट्स् ओके भगिनि कीदृशः आहारः आवश्यकः
कीदृशः आहारः आवश्यकः तादृश आहारः आवश्यकः
भगिनी भगिनी विसर्गः अपि वदतु विसर्गम् अपि वदतु
ओके तादृशः आहारः आवश्यकः ईदृशः आहारः न आवश्यकः
उत्तम उत्तम सौन्दरं भगिनी
मालाम् इच्छति मालाम् इच्छति माला इच्छति भगिनि मालाम् इच्छति ईदृशी मालाम् इच्छति ईदृशी मालाम् इच्छति तादृशी मालाम् इच्छति
भगिनि अत्र मालाम् इति अस्ति खलु अतः कीदृशीं
अस्तु भगिनि कीदृशीं मालाम् इच्छति ईदृशीं मालाम् इच्छति तादृशीं माला न इच्छति
तादृशीं मालां न इच्छामि
मालां न इच्छामि
सो अत्र कीदृशी दट् क्वश्चन् आफ्टर् दट् यु गिव् दि आन्सर् कीदृशीं मालाम् इच्छति तादृशीं मालां न इच्छामि ईदृशीं मालाम् एव इच्छामि
इच्छामि इच्छामि कीदृशीं मालाम् इच्छामि ईदृशीं मालाम् इच्छामि तादृशीं मालां न इच्छामि
उत्तमम् ओ यु केन् आस्क् कीदृशीं मालाम् इच्छति यु आस्क् सम्बडि एल्स्
भगिनि
नाम किं भगिनि
सविता सविता भगिनि
सविता अस्तु
शिशुं दुग्धम् आवश्यकः कीदृशं
वदतु कीदृशं
कीदृशं दुग्धम् आवश्यकः तादृशं दुग्धम्
आवश्यकं खलु दुग्धं
कीदृशं दुग्धम् आवश्यकं तादृशं दुग्धम् आवश्यकम् ईदृशं दुग्धं न आवश्यकम्
उत्तमं बट् वेन् यु आस्क् अ क्वश्चन् मेक् इट् लैक् अ क्वश्चन् कीदृशं दुग्धम् आवश्यकं लैक् दट् सो इट्स् ओके अस्तु
भगिनि अहं वदामि वा
एकनिमिषं भगिनि ऐ विल् आस्क् दि अदर् फोर् अण्ड् देन् यु कम् अस्तु परमेश्वर् महोदय
ईदृशी करवाहिनी आवश्यकं वा तादृशी करवाहिनी आवश्यकं वा
उत्तमं बहु उत्तमम् ईदृशी करवाहिनी इत्युक्ते किं महोदय करवाहिनी
स्त्रीलिङ्ग्
वाट् इस् द मीनिङ्ग् करवाहिनी
करवाहिनी सेल् फोन्
ओ
सोरि सोरि करवाहिनी करभाषिणी
करभाषिणी I know it as Jangama Duravani. It's okay. Karabashini. Astu. Nutana Pala. Nutana Pala. Samyakasti. Karabashini. Astu.
Karabashini.
Karabashini. Samyakasti. Astu. Uttama Mahodaya. Mahesh Mahodaya.
Aam Bhagini. Eedrishe Chashake Jalam Pipati. Eedrishe Chashake Jalam Pipati Va. तादृशे चषके जलं पिबति वा
उत्तमं महोदय परन्तु कीदृशेन चषकेन चषकेन जलं पिबति पुनः पुनः वदतु चषकेन खलु चषकेन जलं पिबति पुनः वदतु
कीदृशेन चषकेन जलं पिबति तादृशेन चषकेन जलं पिबति ईदृशेन चषकेन जलं न पिबति
जलं न पिबति उत्तमम् अथवा जलं न पिबामि उत्तरम् उत्तरं वदामि चेत् जलं न पिबामि तादृशेन चषकेन जलं न पिबामि ईदृशेन चषकेन जलं पिब उत्तमं महोदय बहु उत्तमं रम्या भगिनि बहु ध्वनिः
कीदृशं चलनचित्रं द्रश्यति
ईदृशं चलनचित्रं न द्रक्ष्यति तादृशं चलनचित्रं द्रक्ष्यति.
सो एकम् एकमेव भगिनि द्रक्ष्यति भविष्यत्काल खलु. उत्तम, बहु उत्तम. कीदृशं चलनचित्रं कीदृशं चलनचित्रं द्रक्ष्यति, उत्तमम्. सो वेन् यु आस्क् अ क्वश्चन् टु सम्बडि, somebody else will answer or you can just say like that. So you can say aham tadrisham chalanachitram drakshyami, aham idrisham chalanachitram na drakshyami. So you give the answer like that. Uttamam bhagini, bahu uttamam. Astu agre gachami, atra pustake asti
bhagini. Jyotika, I joined late.
Jyoti bhagini, vadatu bhagini, vadatu.
Kidrisham kankanam avashyakam, tadrisham suvarna kankanam avashyakam, kidrisham rajata kankanam na avashyakam.
Uttama, mama api.
Dhanyavada bhagini. I joined late bhagini, I had work.
So okay. Uttavati kalu sa astu. Okay, so I just want to show you in the book. Vadatu bhagini, vadatu.
Kidrisha prapatah drashtum icchati.
So atra bhagini, drashtum icchati means it becomes dvitiya vibhakti kalu. Punah vadatu.
Kidrisha
कीदृशं प्रपातं द्रष्टुम् इच्छति,
कीदृशं प्रपातं द्रष्टुम् इच्छति, ईदृशं प्रपातं द्रष्टुम् इच्छामि.
उत्तमं, बहु उत्तमं.
तादृशं प्रपातं द्रष्टुं न इच्छामि.
किमर्थं न? अस्तु, किमपि
सर्वं सुन्दरं, परन्तु वाक्यानि वक्तुमेव.
अवगतं भगिनि. अस्तु, पुस्तके 28.163 अहं शीघ्रं पठामि, भवन्तः सावधानतया गृहे पुनः पठन्तु. सो अत्र एका चतुरा बालिका आपणं गच्छति. आपणिकः वदति, भवती किम् इच्छति? अहं पाञ्चालिकाम् इच्छामि. अत्र पश्यतु, पाञ्चालिकाम् इच्छामि. कीदृशपाञ्चालिकाम् इच्छति? सो अत्र कीदृशीं पाञ्चालिकाम् इच्छति इस् द करेक्ट् वे टु डु. परन्तु दे हाव् कम्बैन्ड् इट् कीदृशपाञ्चालिकाम् इति. So when we combine prathama padasya vibhakti linga vachana sarvam gacchati, astuva moola padam eva tishtati, avagatam va? Kidrishim panchalikam eva lekaniyam, parantu they have combined the two words pada dvayasya eka padam likitavati. अत्र अतः प्रथमपदस्य लिङ्गं वचनं विभक्ति सर्वं त्यक्त्वा लिखितम् अस्ति अत्र. कीदृशपाञ्चालिकाम् इच्छति? सो इट् इस् वन् वर्ड्, वि काल् दिस् समस्तपदं, समास, वि काल् इट् अ समास आर् समस्तपदम्. So we make it a one word. If we make it a one word, except for the last word, all the words will lose the linga, vachana, vibhakti. All three it will lose. Only the moola padam will remain. Dvanihi agachati, kripaya mute madhye gachatu.
Bhagini, prashna hasti.
Vadatu.
Bhagini.
Vadatu bhagini, prashatu.
So instead of saying raktaha varnaha kandukaha, we can say raktavarna kandukaha.
Uttama. Correct. Raktavarna kandukaha. अत्र सो 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 वेन् वि वेन् वि ओके सो श्रीनिवास महोदय सो वेन् वि कम्बैन् टू वर्ड्स् ओके द लास्ट् वर्ड् विल् कीप् द विभक्ति लिङ्ग वचन all the other words will lose its vibhakti linga vachana the only thing that will remain is the moola pada just like how she said raktah varnah kandukah so if you combine it together it will become rakta varna kandukah supposing we want to say rakta so kandukena kridami रक्तेन वर्णेन कन्दुकेन क्रीडामि इफ् यु वाण्ट् टु रैट् सेपरेट् वर्ड्स् रक्तेन वर्णेन कन्दुकेन क्रीडामि आर् जस्ट् लैक् हौ महेश महोदय सेड् कीदृशेन चषकेन पिबामि बट् इफ् यु कम्बैन् इट् टुगेदर् इट् विल् बि कीदृशचषकेन पिबामि आर् रक्तवर्णकन्दुकेन क्रीडामि लैक् देट् सो हियर् दे हेव् मेड् एव्रिथिङ्ग् एस् one word samasta pada so you will not see the kidrishim tadrishim idrishim okay so I just want to point out astu agre patami kidrisha panchalikam icchati pashyatu idrisha panchalikam icchami but the actual one is idrishim panchalikam icchami astiva she is very clever I love how she deals with the aapanika
Bhagini, one question here so do we write them all together
yes
as one word
yes astu uttama prashna so there is no gap okay astu like when we say ramakrishna I mean not ram like ramakrishna paramahamsa is like two words right so it is ramakrishna paramahamsa so or like ramaduta hanuman ramasya dutah hanuma right so but we write it together ramaduta hanuma like that
Raktavarnaha is one word and Kandukaha is another word, isn't it?
No, together. Raktavarna Kandukaha.
Okay, thank
it's,
you.
It's like Harihara Putran.
No.
So it will be Harehe, Harihi, Harehe, Haraha Harasya. Harehe Harasya cha Putraha. But then we add it together, Harihara Putraha.
Right.
Like that. So here, but there is no gap. Asti. Parantu, tadrisha panchalika yaha mulyam vimshatihi rupyakani. So how will you, supposing you want to split it, how will you say it separately? Panchalika yaha.
Astu, tadrisha yaha panchalika yaha.
Tadrishi, right? So tadrishyaha. मौल्यं विंशतिः रूप्यकाणि उत्तमं तादृश्याः पाञ्चालिकायाः मूल्यं विंशतिः रूप्यकाणि दर्शयतु भोः दर्शयतु मि शोमि आपणिकः दर्शयति किं भोः इट्स् अ वेरि केजुवल् वे आफ् टाकिङ्ग् किं भोः वाट् वाट् मेन् लैक् देट् लैक् यार् आर् संथिङ्ग् लैक् देट् enna sar enna ya like that kimboho mama sakhi api hyah idrisha panchalikam eva kritavate how is this idrisha change
idrishim
panchalikam eva kritavate tasyah mulyam tu dasha rupyakani eva she is very clever she did her homework before she came to the shop tasyah mulyam tu dasha rupyakani eva so aapanika se prayah so this is, we can say prayashah or prayah sa panchalika which panchalika the one that her friend bought sa panchalika idrisha panchalika na syat syat means probably not Whenever we say prayaha, we can say syat also. Probably not like that. So how will you change Eedrisha Panchalika as a separate word? Eedrisha.
Eedrishi Panchalika.
Ah, Eedrishi Panchalika. Na syat. Probably not. Ah, vadatu mahodaya.
Prayaha also is probably, syat also is probably. Isn't it repeating twice?
Yes, yes.
Prayaha also is probably only, right?
Supposing we just say syat, that is enough. Sa panchalika, idrishi panchalika na syat. But if you add prayaha, it just sounds better. That's all. You don't need to. It just, it is making it more clearer. Prayaha. Or we can just say, prayaha sa panchalika idrishi panchalika na. That is also okay. Okay, so idrisha panchalika eva boho. So the girl is very clever. She says, idrisha panchalika eva boho. So how will the idrisha change?
Idrishi panchalika.
Idrishi panchalika eva boho. Eva boho, aham samyak janami. I know very well. See, samyak janami. She can also say, aham nischayena janami. Tarihi, panchadasha rupyakani dadat. So he says, give me 15. Tarihi, tarihi means therefore. Tarihi like, okay then. It's like then. You don't have to use it with yadi. When you use yadi, you use tarihi. But by itself, you can use tarihi. Tarihi, panchadasha rupyakani dadat. Nayatu. So she says, na, panchadasha rupyakani adhikani. Why is it adhikani?
Rupyakani. Because of rupyakani.
Rupyakani adhikani. But the panchadasha doesn't change. Panchadasha is panchadasha eva. Panchadasha rupyakani adhikani. Aham to dasha rupyakani dadami. Dasha rupyakani, so she can actually add dasha rupyakani eva dadami. So he says, okay, bhavato panchalikam svikarotu. That's it. Okay, good story, right? Very good. Okay, astu aham agre gachami idrisha abhavat. So idanim viruddhartakaha itukte opposite. So narikela vrikshaha unnataha. Vrikshaha unnataha. Jambira vrikshaha vamanaha. Not vamataha. When you say vamataha, it becomes what?
Left.
So you got to be careful. Vamanaha. Not vamataha. Unnataha, but vamanaha. Vamanaha unnataha. Strilinge. Unnata, vamana, napumsakalinge vamanam unnata, vamanam unnatam. Here it is unnata, not unnati. Sometimes for strilingam it ends in e, sometimes it is a. How do we know? We just have to, the more we see, the more we know. Unnata, vamana. Dirgha. Okay. Atra dirgha. Banaha dirgha. Banaha hrasvaha. Short. Long short. Hrasvaha dirgha. Mapik. Okay. Agre agachati. Sarpaha hrasvaha. Dirgha hrasvaha. Okay. Dirgha hrasvaha. Sarpaha dirgaha, sarpaha hrasvaha. Ankani dirga, ankani hrasva. Mapika?
Bhagini?
Dirga.
Can you just split that hras? What are the alphabets okay. There? For?
So, hakara, ra, and a. H, ra, and a. Hra.
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 Dhanyavada.
Astu. So, atra, paranam. अथवा पत्र
हृदय
एक्साक्टली बट हृदय इस् हृ That is,
yes, yes.
That is ha and r. This is hra. So, yeah, good comparison, Mahodaya. So, atra patram, hraswam, dirgham. Hraswaha, hraswa, hraswam. Dirgaha, dirga, dirgham. Kimartam, visheshana, vishesha bhavaha.
Bhagini, so inside the ha, you have two lines, is it? Can you just write it and show, please?
Astu, aham anantaram darshayami, Bhagini.
Astu.
Okay, astu. So, atra pustakam puratanam. Pustakam notanam. नूतनं पुरातनम् अत्र पुरातनी स्त्रीलिङ्गे पुरातनी आगच्छति पुरातनं वाट् इस् दिस् काल्ड् पादत्राणं पुरातनं पादत्राणं नूतनं पादत्राणं नूतनं पुरातनं शाटिका शाटिका कथं भवति पुरातनी शाटिका नूतना शाटिका नूतना पुरातनं विल् बिकम् पुरातनी नूतना विल् बिकम् नूतना एव नूतना शाटिका पुरातनी शाटिका पुरातनी पुरातनी ईदृशी दे आर् आल् ईकारान्त सुन्दरी ईकारान्त मोस्ट्लि इट् इस् आकारान्त नूतना बट् पुरातनी
फोर् देट् देर् इस् एनी रूल् ओर् ओन्लि फ्रम् प्राक्टिस् यु विल् नो वेदर् इट् इस् ईकारान्तम् ओर् आकारान्तम्
ओन्लि बै प्राक्टिस् महोदय सारि नूतना शाटि वदतु महोदय
The Sanskrit word for a shoe is too complicated. Can you stick to paduka or something?
Paduka is like, you know, we usually refer to only like the divine padukas. But like when we... No, we call it pada means pada, trana means to protect. So you think like that. Something that protects your feet is padatranam.
So how do we call socks so, then?
Socks is also, they call it padatranam eva.
Okay.
Because we never had all these words before. So we are just making up words as we go along.
Bhagini.
Vadatu.
Bhagini, Nishtana is a spreading, right? Not Nuttani.
Nutana is, yeah, not Nutani. Nutana, okay. But Puratani.
Okay, Bhagini.
Astu. Stulaha Krishaha. Stulaha Purushaha. Krishaha Purushaha. Krishaha Stulaha. Stula Mahila. कृशा महिला स्थूलं कृशम् अत्र आ आगच्छति स्थूला कृशा स्थूला महिला कृशा महिला स्थूलं किं स्थूलं वृक्षं न स्थूलः वृक्षः एव अन्य किम् स्थूलं फलं कृशं फलम् अस्तु स्थूलं फलं कृशं फलम् लघु बृहत् लघु स्माल् बृहत् बिग् लघु बृहत् अधिकं किञ्चित् जलम् अधिकं जलमस्ति किञ्चित् जलमस्ति सो अत्र वि आर् कम्पेरिङ्ग् टु So I'm going a little bit fast here because I'm thinking you understand. Sarve avagachanti kalo?
Yes, bhagini.
Avagachanti. So atra apekshaya iti asti. Apekshaya iti te compare. Tolana. We are comparing to. Narikela vrikshasya apekshaya. Shashti vibhakti atra. Narikela vrikshasya apekshaya. जम्बीरवृक्षः वामनः अस्ति जम्बीरवृक्षस्य अपेक्षया नारिकेलवृक्षः उन्नतः अस्ति अवगतम् नारिकेलवृक्षस्य अपेक्षया जम्बीरवृक्षः वामनः अस्ति जम्बीरवृक्षस्य अपेक्षया नारिकेलवृक्षः उन्नतः अस्ति वदतु महोदय प्रश्नः वा
That apekshya is compared to, isn't it?
Compared to.
Jambira Viksham ityukte artham kim?
Lemon tree, lemon.
Jamun. You know? Is it jamun? No.
Lemon.
Nimbo. Okay.
Bagini?
Vadatu.
Bhagini, apekshaya is coming on a sixth vibhakti, right?
Aam, sixth vibhakti.
So, prathama apekshaha, prathama vibhakti if I want to use?
No, you cannot use prathama vibhakti.
Only six, shashti?
Only shashti.
Asa bhagini.
For example, when we use saha, you can use only tritiya. Chashakena, balakena saha, mitrena saha, like that, only tritiya.
Astu bhagini.
So the same way, when you use apekshaya, only shashti.
Okay.
Astu. So atra, we will just do some practice, okay? So I'll call people at random. Parameshwar Mahodaya. Vijayaha Vinay.
Vijayaha Vinayaha Apekshaya Unnataha.
So you have to use Shashti here.
Okay. Vijayaha.
Vijayasya.
Oh, sorry. Vijayasya Upekshaya Vinayaha Unnataha.
Apekshaya.
Sorry. Vijayasya Apekshaya Vinayaha Unnataha.
Unnatah. So how will you go the opposite way? I will ask somebody else. Mahesh Mahodaya.
Bhagini. Vinayasya apekshaya vijayah vamanah.
Vamanah. Uttamam. So we can go viparida dishi also. Astu. Ramya Bhagini.
मधुसूदनस्य अपेक्षया समीरः चतुरः
उत्तमं विपरीतदिशि बीना भगिनी
समीरस्य अपेक्षया
मधुसूदनः
I don't know what not
yeah clear. I know so you can just use chaturaha nasti actually you can say
murkaha
yeah you can say moodaha murkaha but if you don't want to use such bad things you can say chaturaha na
chaturaha or was it mandaha is more appropriate right
mandaha also we can use mandaha murkaha Moodah. These are the three things that we commonly use. Mandaha is also okay. Astu. Srinivasa Mahodaya. Bhavaneva Vadatu. Raghuvamsha.
Raghuvamshasya Apekshaya Ramayanam Bhrhat Kavyam.
Astu. Anya Savita Bhagini.
Yes, Bhagini. Ramayana Apekshaya
रघुवंशं
लघुकाव्यं रामायणस्य अपेक्षया रघुवंशं
लघुकाव्यं
लघुकाव्यम् उत्तमम् अम्बा वदति वा
मम गृहस्य अपेक्षया गृहं विशालं
भवतः गृहं विशालम् उत्तमम् अस्तु अन्य कोऽपि गोपिका भगिनि
भवतः गृहस्य अपेक्षया मम गृहं विशालं नास्ति
उत्तमं विशालं नास्ति विशालं नास्ति उत्तम अस्तु अन्तिमं ज्योति भगिनि दुर्योधनः
दुर्योधनस्य अपेक्षया भीमः बलवान् भीमस्य अपेक्षया दुर्योधनः न बलवान्
बलवान् नास्ति
बलवान् नास्ति
अस्तु समयः अतीतः अहं किं किं अस्तु कुत्र अस्ति अभ्यासपुस्तके दर्शयामि कुत्र अस्ति इति सो अत्र विरुद्धार्थकः इति अस्ति भवन्तः पश्यन्तु उन्नतः वामनः अस्ति अत्र बृहत् सो एतत् कुर्वन्तु गृहे अपि च अपेक्षया अपि अत्र अस्ति नूतना स्थूला स्थूलः सर्व अस्तु प्रश्नाः सन्ति वा अस्तु भगिनि अहम् इदानीं प्रदर्शयामि भवती द्रष्टुं शक्नोति वा सागरी भगिनि भवती एव पृच्छति खलु भगिनि
अस्तु
can you see this hakara rakara akara
so there is only one line there in that in that curve
okay
astu dhanyavada
dhanyavada astu prashnah santi va so adya kim patitavantah vayam विशेषणविशेषभावः वेरि इम्पार्टेण्ट् विशेषणविशेषभावः सो वित् दट् वि केन् डू मेनि मेनि थिङ्ग्स् लैक् ईदृश तीदृश ऐ मीन् कीदृश ईदृश तादृश अपि च अपेक्षया अपि च विरुद्धार्थकाः ओके प्रश्नाः सन्ति वा अस्तु
भगिनि भगिनी वन् प्रश्नः ईदृशि मीन्स् वाट् क्वश्चन् मार्क्
नो नो कीदृशि मीन्स् क्वश्चन् मार्क् की सो एनिथिङ्ग् स्टार्टिङ्ग् वित् क इस् अ क्वश्चन् मार्क् लैक् कीदृशि इस् क्वश्चन् मार्क् लैक्
तादृशि इस् अ क्वश्चन्
नो नो सो कीदृशि पाञ्चालिकाम् इच्छति वाट् टैप् डु यु वाण्ट् ईदृशि मीन्स् दिस् टैप्
ओके
तादृश मीन् दट् टैप्
टैप् ओके भगिनि अस्तु धन्यवादः
धन्यवादः अस्तु 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 तर्हि विरमामः शान्तिमन्त्रं वदामः ॐ सर्वे भवन्तु
सुखिनः सर्वे सन्तु निरामया
सर्वे भद्राणि
पश्यन्तु भाग् भवेत्
शान्तिः
हरि
श्रीगुरुभ्यो नमो
नमः हरिः ओम् धन्यवादः भगिनी